सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं क्रियते. भगिनी एकवारं श्लोकान् स्मारयतु.
ॐ गुरुभ्यो नमः. येनाक्षरसमां न्यायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमच्चज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः भगिनि.
धन्यवादाः. प्रवर्तमानः विषयः अष्टाध्याय्याः समग्रदृष्टिः. अस्मिन् पाठे प्रथमभागे प्रक्रियाप्रकरणयोः भेदः कः इति उक्तमस्ति. पाठस्य आरम्भे एव प्रक्रियाप्रकरणयोः भेदम् अवगतवन्तः. तस्य अवगमनार्थम् इत्संज्ञाप्रकरणम्, अणत्वप्रकरणं, द्वित्वप्रकरणम् इत्येतेषां प्रसङ्गे किञ्चित् अधीतमासीत्. द्वितीयबिन्दुः अस्ति अष्टाध्याय्याः मानचित्रं. तस्मिन् अवसरे मातृभिः लिखितं पुस्तकमपि दृष्टवन्तः. प्रत्येकस्मिन् अध्याये कानि कानि विशिष्टानि कार्याणि भवन्ति इति स्थूलरीत्या वयम् अवगतवन्तः. मातृभिः लिखितं पुस्तकं दृष्ट्वा किञ्चित् अवगतम् इति अहं चिन्तयामि. गते वर्गे भवन्तः सर्वे सुब्रह्मण्यमहोदयेन निर्मितानि करपत्राणि दृष्टवन्तः इति भावयामि. अस्मिन् करपत्रे एव सी बिन्दुतः आरभ्य पठेम. अस्मिन् करपत्रे कानिचन अधिकारसूत्राणि दत्तानि. अधिकारसूत्रम् इत्युक्ते किम्? तेन सूत्रेण किमपि कार्यं न भवति. अधिकारसूत्रस्य सम्पूर्ण अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु वर्तते. अपि च अधिकारसूत्राणां कार्यक्षेत्रं किम्, केषाञ्चन प्रमुखानाम् अधिकारसूत्राणां कार्यक्षेत्रं किम्, केषाञ्चन अधिकारसूत्राणां प्रभावः, कार्यक्षेत्रं कुत्र पर्यन्तमस्ति, अधिकारः कुत्र पर्यन्तमस्ति, तेषां कार्यक्षेत्रं कुत्र पर्यन्तमस्ति इति अस्माभिः ज्ञातव्यम्. किमर्थम् इत्युक्ते, यदा वयं बलाबलचिन्तनं कुर्मः तस्मिन् अवसरे तत्सूत्रं कस्मिन् अधिकारे अस्ति, कुत्र अस्ति, सपादसप्ताध्याय्याम् अस्ति वा, त्रिपाद्याम् अस्ति वा, कस्मिन् अध्याये अस्ति, एतत् ज्ञानम् अस्माकं कृते आवश्यकम्. अतः केषाञ्चन अधिकारसूत्राणां प्रसङ्गे अस्मिन् करपत्रे दत्तमस्ति. तेषां कार्यक्षेत्रं किम् इति अद्य वयम् अवगन्तुं प्रयत्नं कुर्मः. अतः करपत्रं पश्यन्तु. सप्त अधिकारसूत्राणि अस्मिन् करपत्रे स्थापितानि. प्रत्ययः, परश्च, धातोः, ज्ञाप्रातिपदिकात्, संहितायाम्, अङ्गस्य, पदस्य, इमानि सप्तसूत्राणि अधिकारसूत्राणि प्रमुखानि. तेषां कार्यक्षेत्रं कुत्र पर्यन्तम् अस्ति, तेषां प्रभावः, तेषाम् अधिकारे कानि कानि सूत्राणि सन्ति, तेषाम् अधिकारे कानि कानि कार्याणि भवन्ति इति अस्माभिः ज्ञातव्यम्. अद्य वयं चत्वारि सूत्राणि पश्येम. ज्ञाप्रातिपदिकात् सूत्रपर्यन्तम् अवलोकयाम. करपत्रम् उद्घाटयन्तु. नरेश् महोदय, भवान् आरम्भं करोतु.
आं भगिनि. अधिकारसूत्राणि केषाञ्चित् मुख्य अधिकारसूत्राणां कार्यक्षेत्रं जानीमश्चेत् सर्वाष्टाध्यायी आकृतिः सौकर्येण मनसि तिष्ठति. अधिकारसूत्रम् इत्युक्तौ तादृशं सूत्रं यस्य पूर्ण अनुवृत्तिः भवति बहुषु सूत्रेषु. अतः कानिचन प्रमुखाधिकारसूत्राणि दत्तानि. तेषां कार्यक्षेत्रम् अपि सूचितं, नाम कस्मात् सूत्रात् आरभ्य किं सूत्रपर्यन्तं तस्य प्रभावः. अत्र दत्तमस्ति अधिकारसूत्राणि अनुवृत्ति रूपेण बहुषु सूत्रेषु आगतः. कार्यक्षेत्रम् अपि सूचितं कदा आरभ्य कथम् अस्ति सूत्रेषु. प्रथमं प्रत्ययः अस्ति
सुकरस्य भावः सौकर्यम् इदं पदं तद्धितप्रत्ययान्तपदम् अस्ति. कार्यस्य क्षेत्रम् अधिकारसूत्राणां कार्यस्य क्षेत्रं कार्यक्षेत्रं समस्तपदम् अस्ति. प्रमुखाधिकारसूत्राणि तत्रापि सवर्णदीर्घसन्धिं कृत्वा लिखितम् अस्ति. अत्र प्रथमं सूत्रं प्रत्ययः, पठतु.
प्रत्ययः
महोदय, अत्र सौकर्येण इति किं महोदय? सौकर्येण इति दत्तं, प्रिण्ट् मिस्टेक् वा किम् अस्ति?
सप्तमी विभक्ति,
सप्तमी विभक्तिः अनावश्यकम्.
अनावश्यकं,
साधु महोदय, अत्र प्रिण्ट् मिस्टेक् अस्ति.
प्रत्ययः तृतीयाध्याये प्रथमसूत्र प्रथमपादे प्रथमसूत्र अधिकारः तृतीय अध्याये प्रथमपादे प्रथमसूत्रात् पञ्चम अध्याये चतुर्थे पादे शतोत्तर षष्टितम सूत्रं तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति. एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत् अस्य सूत्रस्य अधिकारः. अत्र प्रत्ययः तत् सूत्रं तृतीयाध्यायस्य प्रथमसूत्रम् अस्ति. अस्य अधिकारः तृतीयाध्याये चतुर्थे अध्याये पञ्चमे अध्याये पूर्णतया अस्ति. यत्र कोऽपि विधिसूत्रम् अस्ति तत्र प्रत्ययः अनुवृत्तिरूपेण तत्र आगतः त्रिषु अध्यायेषु.
साधु महोदय, तदेव. इदानीं सुन्दरमहोदय, भवान् वदतु, अत्र आवरणे सूत्रसङ्ख्या लिखितमस्ति, सूत्रसङ्ख्याम् एकवारं पुनः पठतु, कथं वक्तव्यम्?
चतुर्थपादः
प्रत्ययाधिकारः कुत्र पर्यन्तम् अस्ति?
कुत्र पर्यन्तम् अस्ति चतुर्थपादः? प्रत्ययस्य अत्र प्रत्ययः तृतीय अध्याये प्रथमपादे प्रथमसूत्रं अधिकारसूत्रं तृतीय अध्यायस्य प्रथमपादस्य प्रथमसूत्रात् पञ्चम अध्यायस्य चतुर्थपादस्य षष्टि अधिक एकशत सूत्रपर्यन्तं तृतीय चतुर्थ पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्मिन् कस्यचित् विधानं भवति तत्र प्रत्ययः आगत्य वदति यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति.
पर्याप्तं महोदय, तदेव. सूत्रसङ्ख्या कथं वक्तव्या इति अस्माभिः ज्ञातव्यं. तृतीयाध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य, अत्र आरभ्य इति उपपदमस्ति, अतः पञ्चमी विभक्तिः भवति. प्रथमसूत्रात् आरभ्य उपपदपञ्चमी विभक्तिः. पञ्चमाध्यायस्य चतुर्थपादस्य षष्ट्यधिक एकशतं सूत्रं, षष्ट्यधिक एकशतसूत्रपर्यन्तं प्रत्ययाधिकारः अस्ति. प्रत्ययाधिकारः एतेषु त्रिषु अध्यायेषु अस्ति, तृतीयाध्याये चतुर्थाध्याये पञ्चमाध्याये अस्ति. एतेषु त्रिषु अध्यायेषु यत्र यत्र विधिसूत्राणि सन्ति, केनचित् सूत्रेण विधानं भवति, तत्र तत्र प्रत्ययः इति अधिकारः अस्ति इति कारणतः प्रत्ययस्य विधानं भवति, तस्य प्रत्ययसंज्ञा भवति इति अर्थः. अस्य अवगमनार्थम् एकम् उदाहरणं दत्तमस्ति. वर्तमाने लट् इति सूत्रं स्वीकृत्य उदाहरणम् उक्तमस्ति. भवान् पठतु अग्रिमपरिच्छेदम्.
तृतीय अध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य पञ्चम अध्यायस्य चतुर्थपादस्य षष्ट्यधिक एकशत सूत्रपर्यन्तम् इत्येषु यत्र यत्र विधानम् अस्ति यत्र यत्र विधानम् अस्ति तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम् अन्वयः यत् यत् विहितं तस्य प्रत्ययसंज्ञा भवति. यथा वर्तमाने लट् तृतीय अध्यायस्य द्वितीयपादस्य त्रयोविंशत्यधिक एकशत सूत्रम् अस्मिन् सूत्रे प्रत्ययः इति सूत्रम् उपविश्य वदति यत् लट् विहितः अस्ति अतः तस्य प्रत्ययसंज्ञा भवति. वर्तमाने लट् इति सूत्रे एतत् सूत्रे प्रत्ययः इति सूत्रम् आगत्य वदति यत्र यत्र वर्तमाने लट् इति विहितः इति सूत्रं विहितः अतः तस्य प्रत्ययसंज्ञा एव भवति इति एतत् सूत्रं वदति प्रत्ययसूत्रम्.
साधु एव. इदानीं नरेश महोदय भवान् वदतु अत्र उदाहरणं दृष्ट्वा भवतः अवगमनं किम्? अत्र वर्तमाने लट् इति सूत्रं प्रत्ययाधिकारे अस्ति इति अवगन्तुम् इदम् उदाहरणं दत्तमस्ति, वदतु.
वर्तमाने लट् अस्मिन् सूत्रे प्रत्ययः इति सूत्रम् उपविश्य वदति यत् लट् विहितः अस्ति अतः तस्य प्रत्यय संज्ञा भवति. अत्र उदाहरणम् अस्ति वर्तमाने लट्. वर्तमाने लट् अस्ति चेत् प्रत्ययः तस्य अधिकारः अस्ति. प्रत्येकसूत्र यत्र विधिः भवति तस्य प्रत्ययस्य अधिकारः अस्ति. अतः वर्तमाने लट् अस्ति चेत् तत्र प्रत्यय अनुवृत्तिरूपेण आगतः तस्य भवति वर्तमाने लट् प्रत्ययः. पूर्णतया
अत्र किञ्चित् भिन्नरीत्या चिन्तनं करणीयं. त्रिषु अध्यायेषु प्रत्ययाधिकारः अस्ति, तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये. एतेषु त्रिषु अध्यायेषु यानि यानि विधिसूत्राणि सन्ति तानि विधिसूत्राणि प्रत्ययाधिकारे सन्ति. उदाहरणार्थं वर्तमाने लट् इति सूत्रं दत्तमस्ति. वर्तमानकालार्थे लट् विहितः भवति. वर्तमानकालार्थे लट् विहितः भवति. इदं कार्यं कुत्र भवति? तृतीयाध्याये भवति. तृतीयाध्याये प्रत्ययाधिकारः अस्ति. प्रत्ययाधिकारः अस्ति इत्यतः लट् इति प्रत्ययः इति वक्तुं शक्यते. तृतीयाध्याये येषां येषां विधानं सञ्जातं भवति तस्य प्रत्ययसंज्ञा भवति. इत्युक्ते येषां कार्यं भवति तृतीयाध्याये तेषां नाम अस्ति प्रत्ययः. वर्तमाने लट् इति सूत्रेण वर्तमानकालार्थे लट् विहितः भवति इति वदामश्चेत् लट् कः इति प्रश्नः उदेति. लट् कः? लट् इति एकः प्रत्ययः. लट् इति प्रत्ययः इति कथं वक्तुं शक्यते? इत्युक्ते प्रत्ययाधिकारे तस्य विधानं भवति. तृतीयाध्याये लट् इति प्रत्ययः धातुतः विधीयते इति अर्थः अस्ति. अत्र किम् अवगन्तुं शक्नुमः? सर्वे लकाराः लट् लोट् लङ् विधिलिङ् लुट् लेट् एते सर्वे लकाराः प्रत्ययाः एव. इत्युक्ते एते लकाराः अथवा लकारप्रत्ययाः धातुतः विधीयन्ते. तृतीयाध्याये धातोः इत्यस्य अधिकारः अपि अस्ति, अग्रे आयस्यति धातोः इति अधिकारे, अपि च प्रत्ययः इति अधिकारे धातुतः लकाराः विधीयन्ते, इत्युक्ते लकाराः प्रत्ययाः एव. तृतीयाध्याये धातुतः लकाराः विधीयन्ते, लकाराः प्रत्ययाः इति वक्तुं शक्नुमः. सर्वे लकाराः अपि प्रत्ययाः. इतोपि स्पष्टतया अवगन्तुं तृतीयाध्याये धातुतः प्रत्ययाः विधीयन्ते, चतुर्थाध्याये प्रातिपदिकात् प्रत्ययाः विधीयन्ते, पुनः प्रातिपदिकात् एव पञ्चमाध्याये तद्धितप्रत्ययानां विधानं भवति. तृतीयाध्याये धातुतः तिङ्प्रत्ययाः कृत् प्रत्ययाः विहिताः भवन्ति प्रत्ययाधिकारे. चतुर्थाध्याये प्रातिपदिकात् स्त्रीप्रत्ययाः सुप्रत्ययाः विधीयन्ते, पञ्चमाध्याये प्रातिपदिकात् तद्धितप्रत्ययाः विधीयन्ते. वर्तमाने लट् इति सूत्रेण वर्तमानकालार्धे धातुतः लट् इति प्रत्ययः विहितः भवति इति अर्थः. प्रत्ययाधिकारे अस्ति इति कारणतः लट् इति प्रत्ययः. इतोपि प्रत्ययः इति संज्ञा अपि भवितुमर्हति, न केवलम् अधिकारसूत्रम्, अधिकारसूत्रम् अपि च संज्ञा अपि भवितुमर्हति. सप्तविधप्रत्ययाः सन्ति आहत्य अस्मिन् अधिकारे. प्रत्ययाधिकारः त्रिषु अध्यायेषु अस्ति, अपि च सप्तविधप्रत्ययाः सन्ति: सनादिप्रत्ययाः, विकरणप्रत्ययाः, तिङ्प्रत्ययाः, कृत् प्रत्ययाः, सुप्प्रत्ययाः, स्त्रीप्रत्ययाः, तद्धितप्रत्ययाः. एते सप्तविधप्रत्ययाः एतेषु त्रिषु अध्यायेषु प्रत्ययाधिकारे विधीयन्ते. प्रत्ययाधिकारे न केवलं विधिसूत्राणि, तत्र कानिचन संज्ञासूत्राणि अपि सन्ति, नियमसूत्राणि, अतिदेशसूत्राणि अपि प्रत्ययाधिकारे सन्ति. एतेषु त्रिषु अध्यायेषु प्रत्ययाधिकारः अस्ति इति स्मर्तव्यम्. इदानीं रोहिणी भगिनी भवती पठतु.
आं भगिनि. द्वितीयबिन्दुः परश्च. तृतीयाध्याये प्रथमपादे द्वितीयं सूत्रम्. अधिकारः तृतीयाध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य पञ्चमाध्यायस्य चतुर्थपादस्य षष्ट्यधिक एकशतसूत्रपर्यन्तम्. एषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्ययतस्य भवति तत्र तत्र परश्च इति सूत्रमपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति. प्रत्ययः प्रकृतेः अनन्तरम् आयाति इति परश्च इति सूत्रं वदति. प्रथमं धातुः भवति, तदनन्तरं प्रत्ययं भवति.
तृतीयाध्याये धातुः प्रकृतिः, चतुर्थाध्याये प्रातिपदिकमस्ति प्रकृतिः. इत्युक्ते प्रकृतितः प्रत्ययस्य योजनेन पदनिर्माणं भवति. धातुतः प्रत्ययस्य योजनेन तिङन्तपदम् अथवा कृदन्तपदं सिद्ध्यति. प्रातिपदिकात् प्रत्ययस्य योजनेन तद्धितान्तपदम् अथवा सुबन्तपदं निर्मातुं शक्नुमः. सर्वदा प्रत्ययः प्रकृतेः अनन्तरम् आयाति खलु. अग्रे उदाहरणं दत्तमस्ति, वदतु.
यथा वर्तमाने लेट् तृतीयाध्याये द्वितीयपादे त्रयोविंशति अधिक एकशततमं सूत्रं. वर्तमानार्थे धातुतः लेट् भवति. अग्रिमा अधिकारसूत्रं धातोः, अपि च लटः प्रत्ययसंज्ञा भवति प्रत्ययः इत्यनेन. धातोः परे एव आयाति परश्च इत्यनेन. अनुवृत्तिसहितसूत्रं धातोः वर्तमाने लट् प्रत्ययः परश्च. यदि लटः प्रत्ययसंज्ञा न अभविष्यत् तर्हि परश्च न आगमिष्यत्. तस्यां दशायां लट् तु आदिन्दौ लघितौ इत्यनेन धातोः प्राग् अभविष्यत् भूयोग लट् इति न, अपि तु लट् योग भू अभविष्यत्. परश्च इति सूत्रं किमर्थम् इति उक्तम् अस्ति. यदि वर्तमाने लट् एव विधीयते तदा लट् इति टकारः टित्तं भवति. आदिन्दटकित इति सूत्रं प्रवर्तते. तस्मात् धातोः अथवा प्रकृतेः आदौ भवेत्. तद् न भवतु इत्यनेन परश्च इति सूत्रं दत्तमस्ति. भूयोग लट् इति न, अपि तु लट् योग भू अभविष्यत्, तद् न भवेत् इति उक्तमस्ति.
साधु, तदेव. नीलं भगिनी, भवत्याः अवगमनं किं, वदतु.
अत्र वर्तमाने लट् इति सूत्रम् अस्ति तृतीयाध्याये द्वितीयपादे त्रयोविंशति अधिक एकशततम सूत्रम् अस्ति. अस्मिन् परिच्छेदे किं लिखितम् अस्ति, अत्र परश्च इति सूत्रस्य प्रयोगः अथवा प्रयोजनं किमर्थम् अस्ति अस्मिन् परिच्छेदे तदेव दत्तम् अस्ति. परश्च इति सूत्रं वदति यत् प्रकृति अनन्तरं यस्य कस्यापि विधानं भवति सः प्रकृति अनन्तरम् एव आयाति. सो परश्च इति सूत्रं तत् निश्चितं तेन सूत्रेण इति निश्चितं भवति. यद्यपि वर्तमाने लट् इति सूत्रे तत्र लट् इति वर्तमानकाल अर्थे तत्र प्रकृतिधातु अनन्तरं लट् प्रत्ययः आयाति, परन्तु लट् यः प्रत्ययः लट् यस्य आदेशः अस्ति सः लट् लट् यः तत्र अनुबन्धरूपेण टकारः अस्ति. सो टकारः इति संज्ञकः वयं जानीमः, तत्र एकं परिभाषासूत्रमस्ति आद्यन्तो टकितो, तेन किं भवति यः आदेशः टित् अस्ति यः अथवा यः आगमः टित् अस्ति सः यस्य आगमः अथवा यस्य आदेशः तस्य आदौ एव आयाति. परन्तु अत्र लट् अपि टित् अस्ति, परन्तु अत्र परिभाषासूत्रस्य आवश्यकता नास्ति. किमर्थं चेत् अत्र परश्च इति सूत्रं वदति यः प्रकृति अनन्तरं यस्य संज्ञा प्रत्ययः भवति सः केवलं धातु प्रकृति अनन्तरम् एव आयाति. सो अत्र टकारः इति संज्ञकः तस्य कोऽपि आवश्यकता तत्र तस्य प्रयोज आवश्यकता नास्ति. किमर्थं चेत् अत्र परश्च इति अधिकारसूत्रम् आगत्य वदति धातु प्रकृति अनन्तरम् एव सर्वे यः लकारः अस्ति तेषां विधानं भवति परश्च इत्यनेन सूत्रेण. सो भूयोग लट् यः अस्ति तत्र प्रायशः तत्र पूर्वे तत्र एकं प्रश्नम् अस्माकं मनसि आयाति, लट् यः टित् अस्ति किमर्थं लट् आदौ न आयाति, किमर्थम् अनन्तरम् एव आयाति. सो परश्च इति सूत्रस्य तेन विधानं तेन निर्णयः भवति. परश्च इति सूत्रं वदति धातु अनन्तरं यत्किमपि प्रत्ययः आयाति तस्य विधानं केवलम् अनन्तरम् एव. सो तत्र लट् योग भू न अभविष्यत्, तत्र केवलं भूयोग लट् इति तत्र भवति.
साधु भगिनी, बहु सम्यक् उक्तवती. परश्च इति सूत्रेण प्रत्ययाः कुत्र प्रयोक्तव्याः इति प्रश्नः उदेति. परश्च सूत्रेण प्रत्ययाः कुत्र आयान्ति, कुत्र प्रयोक्तव्याः इति स्पष्टीक्रियते. प्रत्ययाः सर्वदा प्रकृतेः परम् एव आयान्ति. तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये च प्रत्ययः परश्च द्वयोः अधिकारः अस्ति. इदमपि अधिकारसूत्रमस्ति. परश्च इत्यत्र परः योगः च इति पदद्वयमस्ति, च इति अव्ययपदमस्ति. अयं चकारः किमर्थं प्रयुक्तमस्ति, अत्र चकारस्य प्रयोजनमस्ति वा, परः इति कथनेन का समस्या, चकारस्य प्रयोगः किमर्थं कृतमस्ति. व्याकरणे केचन प्रत्ययाः सन्ति, उणादिप्रत्ययाः नाम्ना केचन प्रत्ययाः सन्ति, तेषां योजनेन अपि कानिचन पदानि सिद्ध्यन्ति, कानिचन पदानि निर्मातुं शक्नुमः उणादिप्रत्ययानां योजनेन. तत्र एकं सूत्रमस्ति, उणादयो बहुलम् इति सूत्रम्. उणादयो बहुलम् इति सूत्रेण उणादिप्रत्ययाः यत्र यत्र विकल्पेन विधीयन्ते तत्र प्रत्ययस्य परत्वम् इत्युक्ते प्रत्ययः धातोः परमेव आयाति इति तु नियमः खलु, उणादिप्रत्ययानां प्रसङ्गे बहुलम् इति उक्तम् अस्ति. यत्र कुत्रापि सूत्रे बहुलम् इति पदम् आयाति चेत् तत्र भिन्नप्रकारककार्याणि भवन्ति. कुत्रचित् प्रवृत्तिः, कुत्रचित् अप्रवृत्तिः, कुत्रचित् विकल्पेन इति बहवः अर्थाः सन्ति बहुलम् इति पदं सूत्रे आयाति चेत्. उणादयो बहुलम् इति सूत्रेण उणादिप्रत्ययानां विधानं भवति. अपि च बहुलम् इति कथनेन तत्र प्रत्ययः विकल्पेन विधीयते चेत् प्रत्ययस्य परत्वमपि विकल्पेन भवति वा इति प्रश्नः उदेति. उणादिप्रत्ययानां प्रसङ्गे अपि प्रत्ययस्य परत्वं नित्यरूपेण एव भवति, न तु विकल्पेन इति सूचयितुम् इति ज्ञापयितुम् अयं चकारः प्रयुक्तः. चकारस्य प्रयोगः तदर्थं कृतः इत्युक्ते उणादिप्रत्ययेषु परत्वं विकल्पेन न भवति, परत्वं न विकल्प्यते इति बोधयितुं च इति पदम् उक्तमस्ति. यत्र यत्र प्रत्ययस्य विधानं भवति सः प्रत्ययः प्रकृतेः परम् एव आयाति. तृतीयाध्याये धातुः एव प्रकृतिः, चतुर्थाध्याये प्रातिपदिकं प्रकृतिः, पञ्चमाध्याये अपि प्रातिपदिकमेव प्रकृतिः. अपि च अत्र वर्तमाने लट् इति सूत्रं दत्तमस्ति. वर्तमान इत्युक्ते किम् इति ज्ञातव्यं. भगिनी भवती वक्तुमिच्छति वा? नीलं भगिनी.
अस्तु महोदय. अत्र वर्तमाने लट् इत्युक्ते या क्रियासम्बन्धे अस्ति, या क्रिया प्रारब्धः अस्ति परन्तु समाप्तम् इदानीं पर्यन्तं समाप्तं न जातः, स एव वर्तमान क्रिया अस्ति.
उत्तमम्. यस्मिन् काले क्रिया आरब्धा किन्तु न परिसमाप्ता, सः कालः एव वर्तमानकालः. इत्युक्ते या क्रिया आरब्धा किन्तु न परिसमाप्ता, सा क्रिया प्रचलन्ती अस्ति किन्तु न समाप्ता, सा क्रिया एव वर्तमानकालिकी क्रिया. बालकः अन्नं खादति, अत्र खादति इति क्रियापदमस्ति. खादनक्रिया आरब्धा किन्तु क्रिया न समाप्ता, सः कालः एव वर्तमानकालः. वर्तमाने लट् इत्यत्र वर्तमाने इति सप्तम्यन्तं रूपम् अस्ति, विषयसप्तमी. लट् इति प्रथमान्तम् अस्ति, लट् इति प्रत्ययः, लट् प्रत्ययः विहितः भवति इति अर्थः. लट् इति प्रथमान्तं पदमस्ति. भूताधिकारः, भविष्यदधिकारः, वर्तमानाधिकारः इति अपि अस्ति. वर्तमाने लट् इति सूत्रात् आरभ्य वर्तमानाधिकारः आरभ्यते. वर्तमानाधिकारः वर्तमाने लट् सूत्रात् आरभ्यते. लट् इति प्रत्ययः प्रत्ययाधिकारे धातुतः विहितः भवति. भूतकालः इत्युक्ते या क्रिया आरब्धा अपि च तस्य समाप्तिः अपि जाता, सा क्रिया एव भूतकालिकी क्रिया. अथवा यस्मिन् काले क्रिया आरब्धा तस्य समाप्तिः अपि जाता, सः कालः एव भूतकालः. भविष्यत्कालः इत्युक्ते यस्मिन् काले क्रिया न आरब्धा तस्य समाप्तिः अपि न अभवत्, सा क्रिया एव भविष्यत्कालिकी क्रिया अथवा सः कालः एव भविष्यत्कालः. भूतभविष्यतोः प्रतिद्वन्द्वे एव वर्तमानकालः इति भाष्यकारेण उच्यते. भगिनी लट् इत्यत्र किम् अवशिष्यते वदतु.
तत्र अकारः अस्ति, सः अहं चिन्तयामि अनुनासिक स्वरः. सो तत्र तस्य अपि इत्संज्ञा भवति. टकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. तत्र लकारः एव अवशिष्यते.
लकारः एव अवशिष्यते. तदा लस्य इति सूत्रेण लकारस्य स्थाने तिबादयः आयान्ति. तिप् आदयः लस्य सूत्रेण आयान्ति. आहत्य अत्र वार्ताका वर्तमाने लट् इति सूत्रं परश्च इति सूत्रस्य अधिकारे अस्ति. भगिन्या सर्वम् उक्तमेव. अत्र मुख्यवार्ता का इत्युक्ते लट् इति कथनेन तत्र टकारः इति संज्ञकः, अनुनासिक अकारः अपि अस्ति. अनुनासिक अकारः उपदेशजनुनासिक इत् इति सूत्रेण इति संज्ञकः भूत्वा तस्य लोपः इत्यनेन अनुनासिक अकारस्य लोपः भवति, केवलं ला एव तिष्ठति. परश्च इति अधिकारसूत्रमस्ति इत्यस्य महत्त्वम् अस्ति वा? प्रत्ययः अपि च परश्च द्वयोः प्राधान्यम् अस्ति वा, द्वयोः महत्त्वम् अस्ति वा इति प्रश्ने सति. लट् इत्यस्य प्रत्ययसंज्ञा नास्ति चेत् किं भवति? लट् इत्यस्य प्रत्ययसंज्ञा अस्ति चेदेव परश्च सूत्रं तत्र आगच्छति. पूर्वं किमुक्तमस्ति? लट् इति प्रत्ययः. किमर्थम् इत्युक्ते प्रत्ययाधिकारे वर्तमाने लट् सूत्रेण धातुतः लट् विहितः भवति प्रत्ययाधिकारे येषां येषां विधानं भवति तेषां प्रत्ययसंज्ञा अस्ति इति उक्तमस्ति लट् इत्यस्य प्रत्ययसंज्ञा नास्ति चेत् तत्र परश्च इति सूत्रं न आयाति परश्च सूत्रं न आयाति चेत् तत्र परिणामः कः लट् इति एकः आगमः इति चिन्तयित्वा वयं पूर्वं पठितवन्तः खलु अट् आगमः आट् आगमः एवम् आगमाः सन्ति खलु लट् इति एकः आगमः इति चिन्तयित्वा तत्र आद्यन्तौ टकितौ इति परिभाषासूत्रम् आगत्य कार्यं कर्तुम् उद्युक्तं भवति लट् इति आगमः भवति चेत् तदा सः आगमः आदौ आयाति इति कृत्वा तत्र समस्या जायते लट् आदौ आयाति चेत् तत्र रूपं किं भवति लट् योगः भू इति भवति स्म तादृशी स्थितिः अस्ति चेत् अशुद्धं रूपं सिध्यति इत्यतः अत्र प्रत्ययः परश्च द्वयोः प्राधान्यमस्ति अथवा महत्त्वम् अस्ति एकवारम् अनुवृत्तिसहितसूत्रं पश्यन्तु धातोः वर्तमाने लट् प्रत्ययः परश्च वर्तमानकालार्थे लट् इति प्रत्ययः धातोः परम् आयाति इति अर्थः अत्र लट् इति आगमः नास्ति लट् इति एकः प्रत्ययः प्रत्ययः सदा प्रकृतेः अनन्तरमेव आयाति लट् इत्यत्र टकारः नास्ति चेत् किं भवति टकारस्य प्रयोजनमस्ति वा कोऽपि वदतु
आं भगिनि यदि यदि टकारः नास्ति तस्मिन् सन्दर्भे टित् न भवति तदनन्तरम् आद्यन्तौ टकितौ इति सूत्रं कार्यं न कर्तुं शक्यते तदेव भवति
तथा नास्ति रोहिणी भगिनी वदतु लट् इति एकः प्रत्ययः सर्वे लकाराः प्रत्ययाः एव किमर्थं चेत् सर्वेषां लकाराणां विधानं धातुतः भवति अपि च तृतीयाध्याये भवति तृतीयाध्याये धातोः इत्यस्य अधिकारः अस्ति लट् इत्यत्र टकारः नास्ति चेत् टकारः हलन्त्यमित्यनेन इत्संज्ञकः भूत्वा अपगच्छति किन्तु टकारः नास्ति चेत् किं भवति रोहिणी भगिनी वदतु
टित् आसनेपदानां टे रे इति एकं सूत्रमस्ति अत्र टित् नास्ति चेत् लङ् इति अत्र कृत्याः इदानीं भवति
बहु सम्यक् उक्तवती भगिनी तदेव तत्र टकारं निमित्तीकृत्य कानिचन विशिष्टानि कार्याणि सन्ति लट् इत्यत्र टकारं निमित्तीकृत्य यद्यपि टकारः इत्संज्ञकः एव अग्रे गत्वा वयं ज्ञास्यामः टकारं निमित्तीकृत्य विशिष्टानि कार्याणि भवन्ति भगिन्या एकं सूत्रम् उक्तमस्ति टित आत्मनेपदानां टेरे इति सूत्रमस्ति भवन्तः सर्वे जानन्ति खलु वर्तते वन्दते लभते पचते इत्यादीनि रूपाणि आत्मनेपदरूपाणि सन्ति खलु तत्र एकारः कुतः आगतः तिप् तस् झिसिप्तस्थ एवम् अष्टादशप्रत्ययाः सन्ति खलु तत्र आत्मनेपदप्रत्ययः प्रथमपुरुषे एकवचनप्रत्ययः ता प्रत्ययः अस्ति ता प्रत्ययं योजयामः किन्तु वर्तते इति रूपं कथमायाति इति प्रश्ने सति टित आत्मनेपदानां टेरे इति सूत्रं कार्यं करोति इत्युक्ते टित् लकारेषु टित् इत्युक्ते यस्मिन् लकारे टकारः इति संज्ञकः लट् लोट् एतादृशलकाराः टित् लकारेषु आत्मनेपदप्रत्ययस्य टीसंज्ञकस्य अकारस्य स्थाने एकारादेशः भवतु इति तेन सूत्रेण उच्यते टित आत्मनेपदानां टेरे इति सूत्रं टित् लकारेषु कार्यं करोति अत्र टकारस्य महत्त्वम् अस्ति अन्यत् प्रयोजनं षड् लकाराः सन्ति खलु लट्टु लुट्टु लिट्टु लेट्टु लोट् एवं लकाराः सन्ति खलु तत्र टकारः नास्ति चेत् तेषां मध्ये भेदं कथम् अवगन्तुं शक्नुमः तेषां मध्ये भेदः अस्ति खलु लट् इत्युक्ते वर्तमानकालार्थे लुट् लकारः भविष्यत्कालार्थे लिट् लकारः भूतकालार्थे भवति तेषां लकाराणां मध्ये भेदः अस्ति भेदं दर्शयितुम् अथवा भेदं द्योतयितुं मार्गः आवश्यकः तदर्थं तत्र टकारः योजितः इत्युक्ते लकाराणां मध्ये भेदम् अवगन्तुं टकारः योजितः किमर्थं टकारः एव योजितः इति प्रश्ने सति पाणिनेः इच्छानुसारं तत्कार्यं कृतमस्ति सः स्वतन्त्रः अतः तस्य इच्छानुगुणं टकारः योजितः, किन्तु टकारः आवश्यकः। नो चेत् लकाराणां मध्ये भेदं कथम् अवगन्तुं शक्नुमः? तृतीयम् अधिकारसूत्रमस्ति धातोः। नरसिंहहेग्डे महोदय, भवान् पठतु।
धातोः तृतीयाध्याये प्रथमे पादे एकनवतितमसूत्रम्। अस्य अधिकारः अस्ति तृतीयाध्याये प्रथम पादस्य एकनवतिसूत्रात् तृतीयाध्याये चतुर्थपादे सप्त एक सप्त सप्ताधिकशतोत्तरसूत्रपर्यन्तं च अधिकारः भवति। तृतीयाध्याये कृदन्तानां तिगन्तानां च विधायकसूत्राणि भवन्ति। अस्मिन् तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्ययः विहितः सः धातुः अनन्तरं विहितः। तृतीयाध्याये प्रथमपादस्य द्वाविंशतितमसूत्रपर्यन्तं, तृतीयाध्याये प्रथमपादस्य नवतिसूत्र अन्यत् पर्यन्तम् अन्यत् सूत्रं तदेव समानं कार्यं करोति। धातुरेकाचो हलादेः क्रियासमविभारे अङ्ग एतदस्ति तृतीयाध्याये प्रथमपादे द्वाविंशतितमसूत्रम्। अत्र अनन्तरं तृतीय अधिकारसूत्रमस्ति धातोः इति, तृतीयाध्याये प्रथमपादे एकनवतितमसूत्रम्। अस्य अधिकारः भवति तृतीयाध्याये प्रथमपादस्य एकनवतितमसूत्रपर्यन्तः, तृतीयाध्याये चतुर्थपादे एकसप्ताधिकशतसूत्रपर्यन्तम्। तत्र तृतीयाध्याये कृदन्तानां तिगन्तानां च विधायकसूत्राणि भवन्ति यत् दातव्यः भवन्ति। अस्मिन् तृतीयाध्याये धातोः सर्वत्र आगत्य वदति यः कोऽपि प्रत्ययः विहितः भवतु सः धातोः अनन्तरं विहितः भवतु इति। तत्र अनन्तरं पुनः एकमस्ति, तत्र द्वाविंशतिसूत्रतः तत्र नवतिसूत्रपर्यन्तम् अन्यत् एकसूत्रं तदेव कार्यं करोति, तद् धातुरेखाचोहलादिक्रियासमव्यवहारे अङ्गित्य नवतिसूत्र अनन्तरं ये धातुः आयाति तस्य पूर्वमपि एतत् सूत्रमागत्य तदेव कार्यं करोति, यः कोऽपि प्रत्ययः भवतु तद् धातुः अनन्तरं विहितः भवतु इति, धातुरेखाचोहलादिक्रियासमव्यवहारे अङ्गीति इति अपि तदेव वदति।
साधु महोदय, तदेव धातोः इति अधिकारसूत्रमस्ति, तस्य अधिकारः तृतीयाध्यायस्य प्रथमपादस्य एकनवतितमसूत्रात् आरभ्य चतुर्थाध्यायस्य सप्तदशाधिक एकशतं सूत्रपर्यन्तं धातोः इत्यस्य अधिकारः अस्ति। तस्मात् पूर्वं किमस्ति? सूत्रसङ्ख्यां पश्यामश्चेत् एकनवतितमं सूत्रात् आरभ्य अस्य अधिकारः अस्ति। तस्मात् पूर्वं कस्य अधिकारः अस्ति? धातोरेकाचोहलादेः क्रियासमभिहारे यङ् इति सूत्रस्य अधिकारः अस्ति। धातोरेकाचोहलादेः क्रियासमभिहारे यङ् इति सूत्रेणापि तदेव समानं कार्यं भवति। तदेव समानं कार्यं भवति इत्युक्ते किं महोदय? भवान् वक्तुमिच्छति चेत् वदतु। धातोरेकाचोहलादेः क्रियासमभिहारे यङ्
धातुरेकाचोहलादे क्रियासमभिहारे यङ् इति सूत्रं, यत्र एकाच् धातुः अस्ति धातुतः यदि वयं क्रियासमविभारे इत्युक्ते यत् कार्यं पुनः पुनः भवति तादृश अर्थस्य प्रत्ययं विहितं विहितं कर्तुम् इच्छामः तदा यथा यङ् प्रत्ययः अस्ति तत् किं भवति तत्र धातोः अनन्तरं भवति धातुरेकाचोहलादेः एकाच् भवतु अनन्तरं आदिमवर्ण हल् भवेत्, तत्र निमित्तत्रयाणि चतुर्थनिमित्तानि सन्ति, एकम् एकाच् धातु भवेत्, हलादि धातु भवेत्, अनन्तरं क्रियायाः अर्थः पुनः पुनः कार्यं करोतु इति भवेत्, तत्र यङ् प्रत्ययः भवति, यङ् प्रत्ययः योजितं भवति धातुतः इति अर्थः एतस्य सूत्रस्य।
उत्तमं महोदय, तदेव धन्यवादाः। एकनवतितमं सूत्रात् आरभ्य धातोः इत्यस्य अधिकारः अस्ति। तस्मात् पूर्वं धातोरेकाचोहलादेः क्रियासमभिहारे यङ् सूत्रस्य अधिकारः अस्ति। तत् सूत्रं किम् इति प्रश्ने सति, तेन सूत्रेणापि तदेव समानं कार्यं भवति, तेन सूत्रेण यङ् प्रत्ययः विहितः भवति, सनादिप्रत्ययेषु यङ् प्रत्ययः अन्यतमः। यङ् प्रत्ययः कुत्र भवति? वारं वारं करोति, अधिकाधिकं करोति, अतिशयार्धे वक्तव्यं चेत्, पौनःपुन्येन कार्यं भवति इति वक्तुमिच्छामश्चेत् यङ् प्रत्ययः विहितः भवति. अतिशयार्धे हलादिः एकाच् धातुभ्यः यङ् प्रत्ययः विहितः भवति. पौनःपुन्ये अर्धे भ्रूषार्धे द्योत्ये इत्युक्ते पौनःपुन्यार्धं द्योतयितुं भ्रूषार्धं द्योतयितुं धातोरेकाचो हलादेः यङ् स्यात्. इदं सूत्रमपि अधिकारसूत्रमेव. यङ् प्रत्ययः सर्वेभ्यः धातुभ्यः न विहितः भवति. कदा भवति यङ् प्रत्ययः? महोदयेन उक्तं त्रीणि निमित्तानि आवश्यकानि यङ् प्रत्ययस्य विधानार्थं. त्रीणि निमित्तानि कानि इत्युक्ते अस्माकं विवक्षा क्रियासमभिहारे भवेत्. क्रियासमभिहारः इत्युक्ते किं? वारं वारं तत् कार्यं भवति, अधिकाधिकं कार्यं भवति, पौनःपुन्येन कार्यं भवति, भ्रूषार्धे कार्यं भवति. एवम् अर्धस्य व्यक्तीकरणार्थम् एतादृश अर्धस्य व्यक्तीकरणार्थं क्रियासमभिहारः इति पदम् उक्तमस्ति. क्रियासमभिहारः इति पदम् अधिकाधिकम् इति अर्थं वक्तुम् उक्तमस्ति. क्रियासमभिहारे अस्माकं विवक्षा अस्ति चेत् यङ् प्रत्ययः विहितः भवति. सः धातुः हलादिः स्यात्, अपि च धातुः एकाच् स्यात्. धातोरेकाचो हलादेः क्रियासमभिहारे यङ् यङ् इति प्रत्ययः विहितः भवति. उदाहरणार्थं जाग्र इति धातुः अस्ति. जाग्रधातुः हलादिः एव, हल्वर्णः जकारः एव, किन्तु एकाचि नास्ति खलु. जाग्र अनेकाचि धातुः, अतः जाग्रधातोः परं यङ् प्रत्ययः विहितः न भवति. ईक्ष इति एकः धातुः अस्ति. ईक्षते इति लटीरूपम् अस्ति. तस्य यङन्तरूपं साधयितुमिच्छामश्चेत् तत्र समस्या का इत्युक्ते ईक्ष धातुः हलादिः नास्ति. ईक्ष धातुः एकाच् धातुः, किन्तु हलादिः नास्ति, अजादिः. अतः तस्य अनन्तरं यङ् प्रत्ययः न विहितः भवति. इत्युक्ते ईक्ष धातोः यङन्तरूपं नास्ति. यङन्तरूपं नास्ति चेत् यङ् लुगन्तरूपमपि न भवति. अन्यधातुः अस्ति, भू इति धातुः अस्ति. भूधातोः लटीरूपं भवति. भूधातुतः यङ् प्रत्ययः विहितः भवति वा इति प्रश्ने सति भूधातुः हलादिः एकाच्, अतः तस्मिन् धातौ आनुकूल्यमस्ति. भूधातोः परं यङ् प्रत्ययस्य योजनेन धातोरेकाचो हलादेः क्रियासमभिहारे यङ् सूत्रेण भूधातुतः यङ् प्रत्ययः विहितः भवति चेत् बोभूयते इति रूपं सिद्ध्यति. वयं पठितवन्तः खलु द्वित्वप्रकरणे यङन्तरूपेषु अपि द्वित्वं भवति. संयङ्गोः इति सूत्रेण यङ् प्रत्ययान्तपदेषु द्वित्वं भवति. भूधातुतः यङ् प्रत्ययः विहितः भवति, अपि च संयङ्गोः सूत्रेण द्वित्वं भवति. तेन बोभूयते इति रूपं सिद्ध्यति. अपि च यङ् इत्यत्र ञकारः इति संज्ञकः, यङ् प्रत्ययस्य अन्तन्यकारः अस्ति, कवर्गीयव्यञ्जनमस्ति, ञित् प्रत्ययः अस्ति खलु. अतः धातुः ञित् अस्ति चेत् किं भवति? आत्मनेपदी भवति खलु. अनुदात्तनित आत्मनेपदम् इति वयं पठितवन्तः. इत्युक्ते धातुः ञित् चेत् तस्य आत्मनेपदीरूपं सिद्ध्यति. अतः यङन्तरूपाणि आत्मनेपदीरूपाणि भवन्ति. भूधातोः रूपं बोभूयते. जी धातुः अस्ति. जी धातुः अपि हलादिः एकाच्, अतः तस्य अनन्तरं यङ् प्रत्ययस्य विधानं भवति. जी धातोः रूपं जे जीयते. पठ् अस्ति चेत् पापठ्यते इति रूपं भवति. पठ् धातुः अपि हलन्तधातुः, अपि च अस्माकं विवक्षा क्रियासमभिहारः इत्युक्ते पौनःपुन्येन तत्कार्यं भवति इति अस्माकं विवक्षा अस्ति. बालकः पुनः पुनः पठति, वारं वारं पठति, अधिकाधिकं संस्कृतं पठति इति वक्तुमिच्छामश्चेत् बालकः पापठ्यते. पापठ्यते इति यङन्तरूपं, पापट्टि इति यङ् लुगन्तरूपं. यङन्तरूपं यङ् लुगन्तरूपं द्वयोः रूपं भिन्नं, किन्तु अर्थः समानः. धातोरेकाचो हलादेः क्रियासमभिहारे यङ् सूत्रेण धातुतः यङ् प्रत्ययस्य विधानं भवति. तदर्थमेव अत्र लिखितमस्ति. तदेव समानं कार्यं भवति. धातोः परं प्रत्ययस्य विधानं भवति. तृतीयाध्यायस्य प्रथमपादस्य नवतितमसूत्रपर्यन्तम् अस्य अधिकारः अस्ति. तस्य अनन्तरं धातोः इत्यस्य अधिकारः अस्ति. अपि च निष्ठा इति एका संज्ञा. महोदय, भवान् पठितवान् वा?
न पठितवान्.
पठतु.
निष्ठा तत्र यथा निष्ठा तृतीयाध्याये द्वितीयपादे द्वि उत्तर एकशतं सूत्रं निष्ठा एका संज्ञा अस्ति त तव तु इत्यनयोः प्रत्ययोः कृते सूत्रसङ्ख्या पश्य सूत्रसङ्ख्याद्वारा बुद्धं यत् अस्मिन् सूत्रे प्रत्ययः धातोः परक्षे इत्येषाम् अधिकारः तर्हि अनेन सूत्रेण त तव तु च भवतः तयोश्च प्रत्ययसंज्ञास्तः अपि च परश्च इत्यनेन धातोः परावीतौ भूते द्वितीयाध्याये द्वितीयपादस्य चतुरशीतितमसूत्रम् इत्यस्यापि अधिकारः अतः भूतार्थे भवति अनुरित्यसहितसूत्रमेवं धातोः निष्ठा भूते प्रत्यये परश्च उदाहरणं कृ योग तव तु कृतवान् पुल्लिङ्गं कृतवान् कृतवत् क्षम्यतां कृ योग तव तु कृतवत् पुल्लिङ्गे कृतवान् इति अत्र निष्ठा इति संज्ञासूत्रमस्ति तद्वदति त तव तु इत्यनयोः प्रत्ययोः कृते प्रत्ययस्य निष्ठा इति संज्ञा भवति सूत्रसङ्ख्या तत्र सूत्रसङ्ख्या अस्ति तृतीयाध्याये द्वितीयपादे द्वि अधिक एकशतं तत्र वयं पश्यामः तत्र प्रत्ययस्य अधिकारः अस्ति धातोः इति अधिकारः भवति परश्च इत्येषाम् अधिकारः भवति अतः एतत् यत् तव तु विहितः भवति तत् धातोः पर विहितः भवति तस्य अर्थः भवति भूतार्थे यदा वयं वर्तमानविवक्षां दृष्टवन्तः वृक्षं लट् इति तत्र भूतार्थे एतत् प्रत्यये विहितः भवति किमर्थमित्युक्ते भूते इत्यस्य अधिकारः अपि अस्ति भूते अस्ति तृतीयाध्याये द्वितीयपादे तत्र शीतितमसूत्रम् एतदस्ति द्व्यधिक एकशतम् अतः तस्य भूते इत्यस्यापि अधिकारः भवति अतः एतत् त तव तु इति भूतार्थे भवति वयं जानीमः तत्र कृ इति धातुं स्वीकुर्मः चेत् तत् त तव तव तु यदि योजयामः तत् तत् प्रातिपदिकं भवति कृतवत् पुल्लिङ्गे कृतवान् स्त्रीलिङ्गे कृतवती नपुंसलिङ्गे कृतवत् इति भवति इति तदेव एतत् सूत्रम् अस्ति निष्ठा इति संज्ञा अस्ति निष्ठासंज्ञा त तव तु चेत् निष्ठासंज्ञा भवतु इति
उत्तमम् निष्ठा इति एका संज्ञा संज्ञा इत्युक्ते केवलं नामकरणम् एकम् अन्यत् सूत्रमपि अस्ति क्ता क्तवतु निष्ठा इति सूत्रेण क्ता प्रत्ययः क्तवतु प्रत्ययः द्वयोः प्रत्ययोः निष्ठासंज्ञा दीयते अनुवृत्तिसहितसूत्रं पश्यामश्चेत् धातोः निष्ठा भूते प्रत्ययः परश्च धातोः परं निष्ठाप्रत्ययौ भवतः क्ता क्तवतु द्वयोः नाम अस्ति प्रत्ययः सः प्रत्ययः धातोः परमेव आयाति अपि च भूतकालार्थकप्रत्ययौ क्ताप्रत्ययः भूतकालार्थकप्रत्ययः क्तवतु प्रत्ययः अपि भूतकालार्थकप्रत्ययः इत्युक्ते वर्तमाने लट् पर्यन्तं भूते इत्यस्य अधिकारः अस्ति भूते इति अपि अधिकारसूत्रम् अस्ति वर्तमाने लट् इति सूत्रात् आरभ्य वर्तमानाधिकारः आरभ्यते तस्मात् पूर्वं भूतकालाधिकारः अस्ति इत्युक्ते भूतकालिकप्रत्ययानां विधानं भवति भूते इति अधिकारसूत्रान्तर्गतप्रत्ययौ एतौ द्वौ क्तवतु इत्यत्र उकारः अनुनासिकः अस्ति अनुनासिक उकारस्य इत् संज्ञा उपदेशजनुनासिक इत् इति सूत्रेण भवति तस्य लोपः इत्यनेन लोपः भवति अपि च खकारस्य इत् संज्ञा भवति लशक्वतधिते इत्यनेन तवत् इत्येव प्रत्ययस्य अवशिष्टभागः इत्युक्ते अनुबन्धलोपे सति प्रत्ययस्य रूपं कथमस्ति इत्युक्ते तवत् क्रूयोगः तवत् क्तवतु प्रत्ययः कित् प्रत्ययः अस्ति कित् प्रत्ययः अस्ति इति कारणतः कित्वात् गुणनिषेधः भवति क्रू धातुः इगन्तधातुः किन्तु प्रत्ययः कित् अस्ति कित् अस्ति इति कारणतः कित्वात् गुणनिषेधः क्निति च सूत्रेण गुणनिषेधः भवति अतः केवलं वर्णमेलनं भूत्वा कृयोगः तवत् कृतवत् इति प्रातिपदिकं सिद्ध्यति कृतवत् इति कृदन्तप्रातिपदिकं प्रातिपदिकात् सुप्रत्ययानां योजनेन कृतवान् पुंसि स्त्रीलिङ्गे कृतवती नपुंसकलिङ्गे कृतवत् रूपाणि भवन्ति क्ता क्तवतु निष्ठा इति सूत्रेण क्ताप्रत्ययस्यापि निष्ठासंज्ञा अस्ति कृतः कृतं कृता इत्यादीनि रूपाणि क्तान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति धातोः इति अधिकारे एव निष्ठाप्रत्ययौ भूतकालार्थे धातोः परम् आयान्ति. अत्र निष्ठा इति सूत्रं तृतीयाध्याये अस्ति इति कारणतः तृतीयाध्याये प्रत्ययाधिकारः अस्ति, धातोः अधिकारः अस्ति, अपि च परश्च इत्यस्य अधिकारः अपि अस्ति. इत्युक्ते तृतीयाध्याये धातोः परं प्रत्ययः आयाति. क्ताक् तावत् द्वौ प्रत्ययौ निष्ठासंज्ञकप्रत्ययौ भूतकालार्थे विहितौ. अग्रे सरेम. अग्रिमं सूत्रमस्ति ञाप् प्रातिपदिकात्. अस्य अधिकारः चतुर्थाध्याये पञ्चमाध्याये च अस्ति. सुन्दरमहोदय, भवान् पठतु.
ज्ञाप्रातिपदिकात् इति सूत्रं चतुर्थाध्याये प्रथमपादे प्रथमसूत्रमस्ति. अधिकारः चतुर्थाध्याये प्रथमपादस्य प्रथमसूत्रात् आरभ्य पञ्चम अध्याये चतुर्थपादस्य षष्ट्यधिक एकशत सूत्रपर्यन्तं भवति. चतुर्थे पञ्चमे च अध्याययोः यावन्तः प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः ञन्तेभ्यः आबन्तेभ्यः वा आयान्ति. ञन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति. तर्हि आहत्य चतुर्थे पञ्चमे च अध्याययोः सर्वे सुबन्तविधायकसूत्राणि सन्ति. तेषु सर्वेषु यत्किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः. अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ञन्तात् आबन्तात् वा विहितः भवति. अत्र अधिकारः भवति ज्ञाप्रातिपदिकात् इति सूत्रं किं वदति इति अत्र लिखितं. चतुर्थपञ्चमे च अध्याययोः यावत् प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः वा ञन्तेभ्यः वा आबन्तेभ्यः वा आयान्ति. ञन्तेभ्यः इत्युक्ते किम् इति न जानामि भगिनि. एवम् आबन्तेभ्यः इति किं भवति इति मया न श्रुतम् अद्यपर्यन्तम्.
तत्र स्थगयतु. कोऽपि वक्तुमिच्छति वा? नो चेत् अहं वदामि तस्मिन् प्रसङ्गे. नरसिंह हेग्डे महोदय, भवान् वक्तुमिच्छति वा?
स्त्रीप्रत्ययः सन्ति आप् डाप् चाप् इति. ज्ञन्तेभ्यः सम्यक् न. आदिमवर्णज्ञः इति अस्ति, ङकारः अस्ति, तत् ज्ञान्तेभ्यः वा? तत् तादृशप्रत्ययं महिता भवति, तत् ज्ञान्तेभ्यः भवति इति अहं चिन्तयामि. ज्ञान्तेभ्यः इत्युक्ते
अहं वदामि वा भगिनि?
लक्ष्मी भगिनी वदतु.
स्त्रीप्रत्ययः सन्ति, ङीप् ङीष् ङीन् एते स्त्रीप्रत्ययाः. एतेषां ङी इति ई इति अवशिष्यते. ङीप् ङीष् ङीन् अनन्तरं आप् आबन्धाः आप् प्रत्यये टाप् जाप् डाप् एते प्रत्ययाः सन्ति. अनुबन्धलोपानन्तरम् आप् इति अवशिष्यते. अनन्तरं प्रातिपदिकात् ञन्तात् आबन्धात् प्रातिपदिकात् च एतेभ्यः विहिताः प्रत्ययाः.
साधु भगिनी, ञाप्रातिपदिकात् इति अधिकारसूत्रमस्ति. अस्य सूत्रस्य अधिकारः चतुर्थाध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य पञ्चमाध्यायस्य चतुर्थपादस्य षष्ट्यधिक एकशततमसूत्रपर्यन्तम् अस्ति. चतुर्थाध्याये अस्य अधिकारः अस्ति, पञ्चमाध्याये अपि अस्ति. इदम् अधिकारसूत्रं खलु. अस्मिन् अधिकारे प्रत्ययाः केभ्यः विधीयन्ते? प्रातिपदिकेभ्यः विधीयन्ते, ञन्तेभ्यः विधीयन्ते, आबन्तेभ्यः विधीयन्ते, प्रातिपदिकेभ्यः विधीयन्ते. प्रातिपदिकेभ्यः कीदृशप्रत्ययानां विधानं भवति? सुप्रत्ययानां विधानं चतुर्थाध्याये सुप्रत्ययानां विधानं भवति प्रातिपदिकेभ्यः इत्युक्ते एकविंशति सुप्रत्ययाः सन्ति खलु सु औज समौक्ष्यस् ताभ्यां भिस् नेभ्यां भ्यस् न्यसिभ्यां भ्यस् न्यसोस् आं नि ओस् सुप् एते एकविंशति सुप्रत्ययाः प्रातिपदिकेभ्यः रामः इति पदं साधयितुम् इच्छामश्चेत् प्रथमाविभक्ति एकवचनप्रत्ययं योजयामः सु इति प्रत्ययं योजयामः चतुर्थाध्याये ज्ञाप्रातिपदिकात् इति सूत्रस्य अधिकारे प्रातिपदिकात् राम इति प्रातिपदिकात् सु इति प्रथमाविभक्ति एकवचनप्रत्ययं योजयामश्चेत् रामः इतोपि अन्यानि कार्याणि सन्ति इति तु अन्यावार्ता प्रातिपदिकेभ्यः सुप्रत्ययानां विधानं भवति चतुर्थाध्याये ज्ञाप्रातिपदिकात् इत्यस्य अधिकारे इति प्रथमम् अस्ति ण्यन्तेभ्यः इत्युक्ते स्त्रीप्रत्ययानां प्रसङ्गे इति अत्र वार्ता अस्ति नवविध स्त्रीप्रत्ययाः सन्ति भगिन्या उक्तं ञीप् ञीषु णीन् तत्र ण्यकारः अस्ति कवर्गी अन्तिमव्यञ्जनं ण्यकारः अस्ति ञीप् इति एकः स्त्रीप्रत्ययः ञीष् णीन् एते त्रयः स्त्रीप्रत्ययाः ञी इति शब्देन गृह्यन्ते ञी इति शब्देन एते त्रयः ञीप् ञीषु णीन् एते त्रयः प्रत्ययाः ञी इति शब्देन गृह्यन्ते ञी योगः अन्तेभ्यः यण्सन्धिं कृत्वा लिखितमस्ति ण्यन्तेभ्यः ञी योगः अन्तेभ्यः ण्यन्तेभ्यः इति अत्र लिखितमस्ति एतेषु त्रिषु प्रत्ययेषु त्रिषु इत्युक्ते ञीप् ञीषु णीन् एतेषु त्रिषु प्रत्ययेषु कश्चन अन्यतमप्रत्ययः यस्य शब्दस्य अन्ते अस्ति सः शब्दः ण्यन्तशब्दः तादृशाः शब्दाः बहवः सन्ति उदाहरणार्थं गौरी इति पदमस्ति गौरी इति दीर्घ ईकारान्तस्त्रीलिङ्गपदमस्ति ञीप् ञीषु णीन् एते स्त्रीप्रत्ययाः इत्युक्ते एतेषां योजनेन ईकारान्तस्त्रीलिङ्गपदानि सिद्ध्यन्ति ञकारः लषक्वतधिते इत्यनेन इत्संज्ञकः भूत्वा अपगच्छति पकारः हलन्त्यम् इत्यनेन इत्संज्ञकः भूत्वा अपगच्छति ञीप् इत्यत्र ई एव तिष्ठति ञीष् इत्यत्रापि ई एव तिष्ठति गौरी इति शब्दः स्त्रीलिङ्गशब्दः तत्र ञीष् प्रत्ययः योजितः कथं जानीमः ञीप् योजितः वा ञीन् योजितः वा ञीष् योजितः वा इति कथं जानीमः इत्युक्ते तत्रापि सूत्राणि सन्ति षिद् गौरादिभ्यश्च इति एकं सूत्रमस्ति गौरादिगणः नाम्ना एकः गणः अस्ति तस्मिन् गणे केचन शब्दाः सन्ति प्रथमसदस्यः अस्ति गौर गणस्य नाम गौरादिगणः गौर इति तस्मिन् गणे प्रथमसदस्यः गौर इति प्रातिपदिकं स्वीकृत्य षिद् गौरादिभ्यश्च इति सूत्रेण ञीष् प्रत्ययस्य विधानं भवति ञीष् इति स्त्रीप्रत्ययः गौर इति प्रातिपदिकं स्वीकृत्य ञीष् इति स्त्रीप्रत्ययस्य योजनेन गौरी ञीष् इत्यत्र अनुबन्धलोपे सति ई एव अवशिष्यते तत्र गौरयोगः ई गौरी इति रूपं तत्र सिद्ध्यति गौरी इति शब्दः ण्यन्तशब्दः पश्यन्तु राम इति प्रातिपदिकमस्ति रामः इति प्रथमाविभक्तिरूपं किन्तु स्त्रीलिङ्गपदानां प्रसङ्गे किं भवति नदी इति एव प्रातिपदिकं गौरी एव प्रातिपदिकं प्रथमाविभक्तिरूपमपि गौरी एव किन्तु प्रातिपदिकमपि गौरी एव इत्युक्ते गौरी इति प्रातिपदिकमस्ति गौरी इति ण्यन्तशब्दः ज्ञाप्रातिपदिकात् इति अधिकारे ण्यन्तेभ्यः शब्देभ्यः प्रत्ययानां विधानं भवति ण्यन्तेभ्यः शब्देभ्यः इत्युक्ते गौरी इति ण्यन्तशब्दः इत्युक्ते गौरी इति पदस्य अन्ते ञीष् प्रत्ययः अस्ति ण्यन्तशब्दः तदेव प्रातिपदिकमस्ति अपि च गौरी इति ण्यन्तशब्दस्य अनन्तरं कीदृशप्रत्ययं योजयामः सुप्रत्ययं योजयामः एकविंशति सुप्रत्ययानां योजनेन गौरीशब्दस्य एकविंशति रूपाणि वयं साधयितुं शक्नुमः विभक्तिरूपाणि सन्ति खलु सप्तसु विभक्तिषु एकविंशति रूपाणि तानि रूपाणि साधयितुम् इच्छामश्चेत् सुप्रत्ययं योजयामः गौरी इति ण्यन्तशब्दः ण्यन्तशब्दस्य अनन्तरं पुनः सुप्रत्ययं योजयामः तदानीम् एव सुबन्तरूपाणि प्राप्तुं शक्नुमः इत्युक्ते सुप्रत्ययस्य योजनेन सुबन्तरूपं सिद्ध्यति सुबन्तमस्ति चेदेव तस्य प्रयोगः वाक्ये भवितुमर्हति ञीष् प्रत्ययस्य प्रसङ्गे षिद् गौरादिभ्यश्च इति सूत्रमस्ति इत्युक्ते गौरादिगणीयशब्देभ्यः षित् प्रत्ययान्तशब्देभ्यः षित् इत्युक्ते षकारः इति संज्ञकः यस्मिन् प्रत्यये अस्ति तादृशप्रत्ययः षित् प्रत्ययान्तशब्दः इत्युक्ते यस्य शब्दस्य अन्ते षित् प्रत्ययः अस्ति तादृशशब्देभ्यः परम् अत्र भ्रमः मास्तु नीषेव षित् गौरादिभ्यश्च इति सूत्रेण गौरादिगणीयशब्देभ्यः षित् प्रत्ययान्तशब्देभ्यः स्त्रीत्वं द्योतयितुं स्त्रीत्वं बोधयितुं निष्प्रत्ययः विहितः भवति उदाहरणार्थं नट इति प्रातिपदिकम् अस्ति चेत् निष्प्रत्ययस्य योजनेन नटी इति रूपं सिद्ध्यति गौर अस्ति चेत् निष्योजनेन गौरी इति रूपम् इति ण्यन्तेभ्यः शब्देभ्यः नीन् प्रत्ययः नीप् प्रत्ययः कुत्र भवति तदर्थमपि अन्यानि सूत्राणि सन्ति स्त्रीलिङ्गपदानां निर्माणसमये नीप् नीषु नीन् एतेषु अन्यतमप्रत्ययस्य योजनेन ईकारान्तस्त्रीलिङ्गपदं सिद्ध्यति अग्रिममस्ति आबन्तेभ्यः चतुर्थाध्याये यावन्तः प्रत्ययाः विहिताः भवन्ति ते आबन्तेभ्यः वा आयान्ति आबन्तेभ्यः इत्युक्ते आबन्ताः अपि स्त्रीप्रत्ययाः एव टापु डापु चाप् एते त्रयः स्त्रीप्रत्ययाः एते त्रयः प्रत्ययाः आप् इति शब्देन एते त्रयः प्रत्ययाः उच्यन्ते टापु डापु चाप् आप् योगः अन्तात् आबन्तात् सन्धिकार्यं भवति खलु आप् योगः अन्तात् आबन्तात् टापु डापु चाप् इत्यत्र टकारः डकारः चकारः एते वर्णाः इत्संज्ञकाः पकारः हलन्तिम् इत्यनेन इत्संज्ञकः भूत्वा अपगच्छति अन्ततो गत्वा टापु डापु चाप् इत्यत्र केवलम् आकारः एव अवशिष्यते यस्य शब्दस्य अन्ते त्रिषु आप् प्रत्ययेषु अन्यतमप्रत्ययः यस्य शब्दस्य अन्ते अस्ति सः शब्दः आबन्तशब्दः नी प्रत्ययः नीष् नीन् एते प्रत्ययाः अपि च टापु डापु चापु एते प्रत्ययाः स्त्रियाम् इति अधिकारसूत्रस्य अधिकारे विधीयन्ते स्त्रियाम् इति एकम् अधिकारसूत्रम् अस्ति तस्मिन् अधिकारे एते स्त्रीप्रत्ययाः विधीयन्ते टापु डापु चापु इति उक्तवती खलु टाप् प्रत्ययः कुत्र विधीयते इति प्रश्नः उदेति टाप् इति प्रत्ययः कुत्र आयाति तदर्थम् एकं सूत्रमस्ति अजाद्यतस्टाप् अजादि अतः टाप् इत्युक्ते अकारान्तप्रातिपदिकात् टाप् प्रत्ययः विहितः भवति अजादिगणः नाम्ना गणः अस्ति तस्मिन् गणे केचन शब्दाः सन्ति अजादिगणीयशब्देभ्यः परं टाप् प्रत्ययः विहितः भवति अपि च ह्रस्व अकारान्तशब्देभ्यः अपि टाप् प्रत्ययः विहितः भवति अजाद्यतस्टाप् इति सूत्रेण औत्सर्गिकतया टाप् विहितः भवति कुत्रचित् अपवादाः अपि सन्ति अहं सूत्रं किम् उक्तवती अजाद्यतस्टाप् अजादि अतः इति पञ्चम्यन्तमस्ति टाप् इति प्रथमान्तमस्ति टाप् प्रत्ययः कदा विहितः भवति कीदृशशब्देभ्यः टाप् प्रत्ययः विहितः भवति अजादिगणीयशब्देभ्यः अपि च ह्रस्वकारान्तशब्देभ्यः टाप् इति स्त्रीप्रत्ययः विहितः भवति अज इति अजादिगणस्य प्रथमसदस्यः अज इति प्रातिपदिकात् टाप् प्रत्ययस्य योजनेन स्त्रीलिङ्गपदम् अजा रूपं सिद्ध्यति बाल इति प्रातिपदिकं स्वीकृत्य टाप् प्रत्ययस्य योजनेन बाला मूषिका वत्सा कोकिला चटका अश्व इति प्रातिपदिकं स्वीकृत्य टाप् प्रत्ययस्य योजनेन अश्वा इति रूपं सिद्ध्यति एवमेव ह्रस्वकारान्तशब्देभ्यः अपि टाप् प्रत्ययः विहितः भवति सरल इति ह्रस्वकारान्तप्रातिपदिकं टाप् इति प्रत्ययं योजयामः तेन सरला इति रूपम् उज्ज्वल इति ह्रस्वकारान्तप्रातिपदिकं ह्रस्वकारान्तशब्दः तस्मात् परं टाप् प्रत्ययस्य योजनेन उज्ज्वला इति रूपं प्रथम इति ह्रस्वकारान्तप्रातिपदिकं ह्रस्वकारान्तशब्दः अस्ति इत्यतः टाप् प्रत्ययस्य योजनेन प्रथमा द्वितीया तृतीया एवमेव मध्यमा इति ह्रस्व अकारान्तशब्दः तस्मात् परम् अजाद्यतस्टाप् इति सूत्रेण टाप् प्रत्ययस्य योजनेन मध्यमा इति रूपं भवति भवन्तः सर्वे श्रुतवन्तः खलु णुवुल् प्रत्ययान्तरूपाणि क्रूधातुतः कारकः इति णुवुल् अन्तरूपं कारक इति प्रातिपदिकं सिद्ध्यति पुंलिङ्गे कारक इति ह्रस्व अकारान्तशब्दः, तस्मात् परं टाप् योजनेन कारिका। तत्र किमर्थम् इकारः आयाति इति अन्या वार्ता। इकारः भिन्नसूत्रेण आयाति। णुवल् प्रत्यान्तशब्दाः केचन सन्ति, कारकः, कारिका। क्रूधातुतः णुवल् योजनेन कारक इति रूपं सिद्ध्यति। ध्रु धातुतः णुवल् योजनेन धारक। टाप् इति प्रत्ययस्य योजनेन कारिका, एवं रूपाणि भवन्ति। नी धातुतः णुवल् योजनेन नायक इति प्रातिपदिकं। पुंलिङ्गे नायकः, स्त्रीलिङ्गे नायिका, तत्र टाप् इति प्रत्ययः अस्ति। गै धातुतः गायकः, स्त्रीलिङ्गे गायिका। णुवल् इत्यत्र किं भवति, उ अवशिष्यते, अपि च उ स्थाने युवोरनाकौ इति सूत्रेण अक आदिष्टः भवति इत्यतः लिख् धातोः णुवुल्लन्तरूपं लेखक इति तत्र प्रातिपदिकमस्ति। पुंलिङ्गे लेखकः, स्त्रीलिङ्गे लेखिका। लेखिका इति रूपं साधयितुमिच्छामश्चेत् तत्र अजाद्यतष्टाप् इति सूत्रेण टाप् प्रत्ययः विहितः भवति। पच् धातोः रूपं पाचकः, पाचिका। रक्षकः, रक्षिका इत्यादीनि रूपाणि भवन्ति। एते शब्दाः आबन्ताः। ण्यन्तशब्दाः आबन्तशब्दाः स्त्रीप्रत्ययानां योजनेन निर्मातुं शक्नुमः। स्त्रीप्रत्ययस्य योजनानन्तरं स्त्रीलिङ्गप्रातिपदिकं सिद्ध्यति। स्त्रीलिङ्गप्रातिपदिकं सिद्ध्यति, तत्र पुनः सुप्रत्ययान् योजयामः खलु, तदानीम् एव सप्तसु विभक्तिषु सर्वाणि विभक्तिरूपाणि साधयितुं शक्नुमः। अस्मिन् परिच्छेदे किं लिखितं, चतुर्थाध्याये पञ्चमाध्याये च सुबन्तविधायकसूत्राणि सन्ति इति मुख्या वार्ता। ज्ञाप्रातिपदिकात् इति सूत्रस्य अधिकारे प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते, ण्यन्तेभ्यः विधीयन्ते, आबन्तेभ्यः विधीयन्ते, अन्ततो गत्वा अस्मिन् अध्यायद्वये सुबन्तविधायकसूत्राणि सन्ति। ण्यन्तेभ्यः शब्देभ्यः परमपि सुप्रत्ययं योजयामः खलु, तदानीम् एव एकविंशति सुबन्तरूपाणि साधयितुं शक्नुमः। आहत्य अन्ततो गत्वा कुत्र टाप् प्रत्ययः विहितः भवति, कुत्र डाप्, कुत्र चाप् विहितः भवति इत्यस्य सूचनार्थं विशिष्टानि सूत्राणि सन्ति। तेषु अन्यतमं सूत्रमस्ति अजाद्यतष्टाप्। अजादिगणीयशब्देभ्यः अकारान्तशब्देभ्यः टाप् प्रत्ययः विहितः भवति। कुत्र डाप् भवति इति प्रश्नः उदेति। भवन्तः सर्वे श्रुतवन्तः खलु सीमा, सीमा इति पदमस्ति, तत्र प्रातिपदिकमस्ति सीमन्, सीमन् नकारान्तप्रातिपदिकमस्ति, तत्र डाप् प्रत्ययः अस्ति। तत्रापि सूत्रमस्ति डाबुभाभ्याम् अन्यतरस्याम्, डाबुभाभ्याम् अन्यतरस्याम् इति सूत्रेण सीमन् इति नकारान्तप्रातिपदिकमस्ति। डाप् इत्यत्र किं भवति, डकारस्य इति संज्ञा भवति। चुटु इति सूत्रेण डकारस्य इति संज्ञा भवति, पकारस्यापि इति संज्ञा भवति, आ एव शिष्यते। सीमन् इत्यत्र नकारलोपः भवति, अन्ततो गत्वा सीमा इति स्त्रीलिङ्गपदं सिद्ध्यति। सीमन् इति कथनेन तत्र अन् इति अन्ते श्रूयते खलु, डाभुवाभ्याम् अन्यतरस्याम्। आहत्य अस्मिन् अधिकारे प्रातिपदिकेभ्यः, ण्यन्तेभ्यः, आबन्तेभ्यः प्रत्ययाः विधीयन्ते। चतुर्थाध्याये तादृशं कार्यं भवति, किन्तु पञ्चमाध्याये किं भवति इति द्रष्टव्यम्। चतुर्थाध्याये पञ्चमाध्याये च प्रत्ययाः विधीयन्ते प्रातिपदिकेभ्यः, विशेषतया चतुर्थाध्याये प्रातिपदिकेभ्यः, ण्यन्तेभ्यः, आबन्तेभ्यः प्रत्ययानां विधानं भवति, किन्तु पञ्चमाध्याये तद्धितप्रत्ययानां विधानं भवति। तद्धिताधिकारः बृहान् अधिकारः, बहवः तद्धितप्रत्ययाः सन्ति, तेषां विधानं पञ्चमाध्याये भवति। तद्धित इति पदमस्ति खलु, अर्थः कः, तेभ्यः हिताः तद्धिताः इति अर्थः। हिताः इत्युक्ते उपकारिणः, प्रयोगार्थं हितकारिणः भवन्ति तद्धितप्रत्ययाः। तेभ्यः हिताः तद्धिताः, तद्धितानां योजनेन तद्धितान्तपदानि सिद्ध्यन्ति। तद्धितप्रत्ययानां योजनेन प्रयोगे लाघवम् अपि च माधुर्यं सिद्ध्यति। तद्धितानां योजनेन प्रयोगेषु लाघवं सिद्ध्यति, माधुर्यं सिद्ध्यति। लाघवं, सुन्दरमहोदय वदतु लाघवम्।
इत्युक्ते लघोः भावः लाघवम् इति
माधुर्यं
मधुरस्य भावः माधुर्यम् इति तद्धितप्रत्ययः
गौरवम्
गुरोः भावः गौरवम् इति अण् प्रत्ययः
अण् प्रत्ययः उत्तमम् एतत् सर्वं पञ्चमाध्याये भवति पञ्चमाध्याये प्रातिपदिकात् तद्धितप्रत्ययानां विधानं भवति पञ्चमाध्याये अपि प्रत्ययाधिकारः अस्ति किन्तु पञ्चमाध्याये विशिष्टं कार्यं किं प्रातिपदिकेभ्यः तद्धितप्रत्ययानां विधानं भवति गुरु इति प्रातिपदिकं स्वीकृत्य अण् इति तद्धितप्रत्ययस्य योजनेन गौरवम् अन्यानि कार्याणि तत्र सन्ति लघु इति प्रातिपदिकं स्वीकृत्य अण् प्रत्ययस्य योजनेन लाघवं तद्धितानां योजनेन माधुर्यं सिद्ध्यति लाघवं सिद्ध्यति माधुर्यम् इति मधुर इति प्रातिपदिकं स्वीकृत्य श्यै इति तद्धितप्रत्ययस्य योजनेन माधुर्यम् इति रूपं पञ्चमाध्याये प्रातिपदिकात् तद्धितप्रत्ययानां विधानं भवति अपि च पञ्चमाध्याये अव्ययसंज्ञकतद्धितप्रत्ययाः सन्ति अव्ययसंज्ञकतद्धितप्रत्ययाः इत्युक्ते कुत्र अव्ययमस्ति खलु कुतः इतः ततः कुत्र अत्र तत्र
तत्त्वमपि तद्धितप्रत्ययः अस्ति किल तत्त्वम्
अव्ययसंज्ञकप्रत्ययानां प्रसङ्गे
वदन्ति
अव्ययं नास्ति तत्त्वम् इत्यस्य सर्वाणि रूपाणि सन्ति खलु तत्त्वानि इत्युक्ते एकविंशति रूपाणि सन्ति खलु फलं शब्दवत् अव्ययसंज्ञकतद्धितप्रत्ययानां विधानं पञ्चमाध्याये भवति कानिचन अव्ययानि वयं जानीमः कुतः इतः ततः इमानि पदानि अव्ययपदानि तद्धितान्तपदानि कथम् इत्यपि किं शब्दात् निर्मितं किम् इति प्रातिपदिकं स्वीकृत्य निर्मितं पदं कथम् एतत् कार्यं कथं भवति कथम् इति अव्ययसंज्ञकतद्धितप्रत्ययस्य योजनेन निर्मितं पदं कथम् इत्यस्य रूपं सर्वत्र कथमेव एवमेव कुत्र अत्र तत्र इत्यादीनि अव्ययसंज्ञक त्रल् प्रत्ययः सः तद्धितप्रत्ययः कस्मिन् अर्थे अस्ति इति अपि द्रष्टव्यम् एवं प्रातिपदिकात् तद्धितप्रत्ययाः पञ्चमाध्याये विधीयन्ते प्रातिपदिकात् तद्धितप्रत्ययस्य योजनेन तद्धितप्रत्ययान्त प्रातिपदिकं सिद्ध्यति प्रातिपदिकसंज्ञा अस्ति चेदेव तस्य अनन्तरं सुप्रत्ययं योजयितुं शक्नुमः इत्युक्ते प्रातिपदिकसंज्ञा सूत्रद्वयेन दीयते अर्धवत्तधातुरप्रत्ययः इति सूत्रेणापि प्रातिपदिकसंज्ञा दीयते कृत्तद्धितसमासश्चेत् सूत्रेणापि प्रातिपदिकसंज्ञा दीयते अनेन सूत्रद्वयेन शब्दस्य प्रातिपदिकसंज्ञा भवति प्रातिपदिकस्य अन्ते तद्धितप्रत्ययः अस्ति इति कारणतः कृत्तद्धितसमासाश्च इति सूत्रेण तस्य शब्दस्य प्रातिपदिकसंज्ञा दीयते तस्य प्रातिपदिकसंज्ञा अस्ति चेत् तस्य अनन्तरं सुप्रत्ययं योजयितुं शक्नुमः सुप्रत्ययः अस्ति चेदेव तस्य पदसंज्ञा भवति पदसंज्ञा अस्ति चेदेव तस्य प्रयोगं कर्तुं शक्नुमः वाक्येषु नो चेत् तस्य प्रयोगः न करणीयः यस्य कस्यापि शब्दस्य पदसंज्ञा अस्ति चेदेव सुबन्तम् अथवा तिङ्गन्तमेव पदम् इति कथयितुम् अर्हः इतोपि अत्र अधिकारसूत्रत्रयमस्ति संहितायाम् अङ्गस्य पदस्य इति त्रीणि सूत्राणि सन्ति एतेषां त्रयाणां प्रसङ्गे आगामिने सप्ताहे चर्चां करिष्यामः अङ्गस्य इति अधिकारसूत्रमस्ति खलु अङ्गस्य इति अधिकारे प्रत्ययम् आश्रित्य अथवा प्रत्ययं निमित्तीकृत्य अङ्गे यत् कार्यं भवति तत् अङ्गकार्यम् अङ्गकार्यम् अङ्गस्य इति अधिकारसूत्रस्य परिधौ भवति सार्वधातुकार्थधातुकयोः पुगन्तलघूपथस्य च एतत् सूत्रद्वयम् अङ्गस्य इति अधिकारसूत्रस्य परिधौ एतत् सूत्रद्वयम् अस्ति प्रत्ययं निमित्तीकृत्य प्रत्ययम् आश्रित्य अङ्गे यत् कार्यं भवति तदेव अङ्गकार्यं तत्र इतोपि स्पष्टतया वक्तुमिच्छामश्चेत् पदस्य अन्ते कार्यं पदस्य मध्ये कार्यम् इति नास्ति किन्तु पदनिर्माणसमये यदा वयं पदं निर्मातुमिच्छामः पदनिर्माणावसरे यानि यानि कार्याणि अङ्गे सम्भवन्ति तानि कार्याणि अङ्गकार्याणि अङ्गस्य इत्यधिकारे कानि सूत्राणि सन्ति इति आगामिनि सप्ताहे चिन्तनं करिष्यामः. अहं पूर्वम् उक्तवती, संहिता इत्युक्ते सन्धिः, वर्णानां नैकट्यं, यत्र यत्र वर्णानां मध्ये अतीव सामीप्यं नैकट्यमस्ति तत्र एव संहिता इति वदामः. सन्धिः इति पदम् अष्टाध्यायं कुत्रापि न दृश्यते, केवलं संहिता एव दृश्यते. संहितायाम् इति अधिकारसूत्रस्य परिधौ बहूनि सन्धिसूत्राणि सन्ति. अत्र गुणसन्धेः प्रसङ्गे लिखितमस्ति. सन्धिसूत्राणि संहितायाम् इत्यस्य अधिकारे सन्ति. अत्र आद्गुणः सूत्रस्य प्रसङ्गे लिखितमस्ति. अग्रिमे सप्ताहे अवशिष्टानि त्रीणि सूत्राणि पठित्वा अग्रे सरेम. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.
धन्यवादः भगिनी.
पुनर्मिलामः.
पुनर्मिलामः.
नमस्कारः.